कार्यद्रव्याणाम् उत्पत्ति विनाश क्रमः तत्र पृथिव्यादीनां चतुर्णां कार्यद्रव्याणाम् उत्पत्ति विनाश क्रमः कथ्यते। द्वयोः परमाणवोः क्रिया संयोगे सति द्वणुकम् उत्पद्यते, तस्य परमाणु समवायि कारणम्, तत्संयोगो असमवायि कारणम्, अधिष्ठादि निमित्त कारणम्, ततो द्वणुकानां त्रयाणां क्रिया संयोगे सति त्रणुकम् उत्पद्यते, तस्य द्वणुकानि समवायि कारणम् शेषम् पूर्वत्। एवं त्रणुकश्चतुर्भिश्चतुर्णुकम्, चतुर्णुकैरपरम् स्थूलतरम्, तैरपरम् स्थूलतमम्। एवं क्रमेण महापृथ्वी, महस्य आपो, महत्तेजो, महांश्च वायुरुत्पद्यते। कार्यगता रूपादयः स्वाश्रय समवायि कारणगतेभ्यो रूपादिभ्यो जायन्ते, कारणगुणा हि कार्यगुणानारमते इति न्यायात् इत्थम् उत्पन्नस्य रूपादिमतः कार्यद्रव्यस्य घटादिरवयवेषु कपालादिषु नोदनादभिघाताद्वा क्रिया जायते। तया विभागास्ते नावयव्यारम्भकस्य समवायिकारणीभूतस्य संयोगस्य नाशः क्रियते, ततः कार्यद्रव्यस्य घटादेर अवयविनो नाशः। एते नावयवारम्भक असमवायिकारणनाशे द्रव्यनाशो दर्शितः। क्वचित् समवायिकारणनाशे द्रव्यनाशो यथा पूर्वोक्तस्यैव पृथिव्यादे संहारे संजिहीर्षो महेश्वरस्य संजिहीर्षा जायते, ततो दणुकारम्भकेषु परमाणुषु क्रिया, तया विभागः ततस्तयो संयोगनाशे सति दणुकेषु नष्टेषु स्वाश्रयनाशात् त्रणुकादिनाशः। एवं क्रमेण पृथिव्यादिनाशः यथा वा तन्तूनां नाशे पटनाशः, सद्गतानां रूपादीनां स्वाश्रयनाशे नैव नाशः, अन्यत्र तु सत्येवाश्रये विरोधिगुणप्रादुर्भावेण विनाशः, यथा पाकेन घटादौ रूपादिनाश इति। किं पुनः परमाणुसद्भावे प्रमाणम्? उच्यते, यदिदं जालसूर्यमरीचिष्टं सर्वतः सूक्ष्मतमं रज उपलभ्यते, तदा स्वल्पपरिमाण द्रव्यारब्ध कार्यद्रव्यत्वात् घटवत् तच्च द्रव्यं कार्यमेव महद्रव्यारम्भकस्य कार्यत्व नियमात्, तदेवं द्रणुकाख्यं द्रव्यं सिद्धं, तदपि स्वल्पपरिमाण समवायि कारणारब्धं कार्यद्रव्यत्वात् घटवत्। यस्तु द्रणुकारम्भकः स एव परमाणुः, साच्चानारब्धः एवेति। ननु कार्यद्रव्यारम्भकस्य कार्यद्रव्यत्वाव्यभिचारात् तस्य कथं नारब्धत्वम्? उच्यते अनंत कार्य परंपरा दोष प्रसंगात् तथा च सति अनंत द्रव्यारब्धत्वात् विशेषेण मेरुसर्पयोरपि तुल्य परिमाणत्व प्रसंगः। तस्माद् नारब्ध एव परमाणु, द्वणुकं तु द्वाभ्यामेव परमाणुभ्याम् आरभ्यत, एकस्यानारम्भकत्वात् त्रयादि कल्पनायां प्रमाणाभावात्, द्वणुकं तु त्रिभिरेव द्वणुकैराभ्यत, एकस्यानारम्भकत्वात् द्वाभ्यामारम्भे कार्यगुणमहत्त्वानुपपत्ति प्रसंगात्, कार्ये हि महत्त्वं कारणमहत्त्वाद्वा कारणबहुत्वाद्वा तत्र प्रथमस्यासम्भवाच्चारम्भं मेषितव्यं, न च चतुरादिकल्पनायां प्रमाणम् अस्ति त्रिभिरेव महत्त्वारम्भोपपत्तिरिति। शब्दगुणकमाकाशं, शब्दसंख्या, परिमाणपृथक् संयोगविभागवत्, एकं विभु नित्यं च, शब्दलिङ्गकं च, शब्दलिङ्गकत्वमस्य कथं, परिशेषात् प्रसक्त प्रतिषेधेऽन्यत्राप्रसङ्गात् परिशिष्यमाणे सम्प्रत्ययः। परिशेषः, तथा हि शब्दस्तावत् विशेषगुणः सामान्यत्वे सत्यस्मदादिबाह्येकेन्द्रियग्राह्यत्वात् रूपादिवत्, गुणश्च गुण्याश्रित एव, न चास्य पृथिव्याचतुष्टयमात्मा च गुणी भवितुमर्हति। श्रोतग्राह्यत्वात् शब्दस्य ये हि पृथिव्यादीनां गुणा न ते श्रोत्रेन्द्रियेण गृह्यन्ते यथा रूपादयः, शब्दस्तु श्रोत्रेण गृह्यते अतो न तेषां गुणः, न च दिक्कालमनसां गुणः विशेषगुणत्वात्। अत एभ्योष्टेभ्यो अतिरिक्तः शब्दगुणी एषितव्यः, स एवाकाश इति। स चैको भेदे प्रमाणाभावाद् एकत्वे नैवोपपत्तेः एकत्वाच्चाकाशत्वम्। नाम सामान्यमाकाशे न विद्यते, सामान्यस्यानेकवृत्तात् विभूचाकाशं परं महत्परिमाणवदित्यर्थः, सर्वत्र तत्कार्योपलब्धेः, अत एव विभुत्वान् नित्यम् इति। कालोऽपि दिग्विपरीतपरत्वापरत्वानुमेयः संख्यापरिमाणपृथक्संयोगविभागवान् एको नित्यो विभुश्च, कथमश्च दिग्विपरीत परत्वा परत्वानुमेयत्वम् उच्यते सन्निहिते बुद्धे सन्निधानात् परत्वार्हे तद्विपरीतम् परत्वम् प्रतीयते द्वैते नून व्यवधानात् परत्वार्हे तद्विपरीतम् परत्वम् प्रतीतम् तत्तद्विपरीतम् परत्वम् परत्वम् च कार्यम् तत्कारणस्य दिगादेर संभवात् कालमेव कारणम् अनुमापयति स चैकोऽपि वर्तमानातीत भविष्यत् क्रियोपाधि वशात् वर्तमानादि व्यपदेशं लभते पुरुष एव पच्यादि क्रियोपाधि वशात् पाचक पाठकादि व्यपदेशं नित्यत्वं विभुत्वे चास्य पूर्ववत् काल विपरीत परत्वा परत्वानुमीया दिक् एका नित्या विवेच संख्या परिमाण पृथक् संयोग विभाग गुणवती पूर्वादि प्रत्ययरनुमेया तेषाम् अन्य निमित्ता संभवात् पूर्वमस्मिन् पश्चिमे वा देशे स्थितस्य तत्तुनस्तादवस्थ्यात् स च कोऽपि सवितुस्तत्तद्देशसंयोगोपाधिवशात् प्राच्यादिसंज्ञां लभते आत्मत्वाभिसम्बन्धान् आत्मा सुखदुःखादिवैचित्र्यात् प्रतिशरीरः भिन्नः स चोक्त एव तस्य सामान्यगुणाः संख्यादयः पञ्चबुद्ध्यादयो नव विशेषगुणाः नित्यत्वविवृत्ते पूर्ववत् मनस्त्वाभिसम्बन्धमन् मनः अणु आत्मसंयोगी अन्तरिन्द्रियम् सुखाद्युपलब्धिकरणम् नित्यम् च संख्याद्यष्टगुणवत् तत्संयोगेन बाह्येन्द्रियमर्थग्राहकम् अत एव सर्वोपलब्धिसाधनम् तच्च न प्रत्यक्षम् अपि तनुमानगम्यम् तथा हि सुखाद्युपलब्धियश्चक्षुराद्यतिरिक्तकरणसाध्याः असत्स्वपि चक्षुरादिषु जायमानत्वात् विकटमिच्छिदावत् यद्वस्तु यद्युनैवोत्पद्यते तत्तद् अतिरिक्तकारणमध्यम् यथा कुठारम् दिनोत्पद्यमाना पचनक्रिया तत्तद् अतिरिक्तवहनयादिकरणसाध्या यच्च करणम् तन्मनः तच्च चक्षुराद्यतिरिक्तम् तच्चाणुपरिमाणम् इति द्रव्याणित्यानि गुणाः अतिगुणाः उच्यन्ते सामान्यवान् असमवायिकारणम् अस्पन्दात्मा गुणः स च द्रव्यास्थित एव रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्संयोगविभागपरत्वापरत्वगुरुत्वद्वत्स्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषत्वधर्मासनसंस्कारभेदाश्चतुर्विंशतिधा तत्त्वरूपम् चक्षुर्मात्रग्राह्यो विशेषगुणः पृथिव्यादित्रयवृत्तिः तच्च शुक्लाद्यनेकप्रकारम् पाकजम् च पृथिव्याम् तच्चानित्यम् पृथिवीमात्रे आप्यतैजसपरमाणवो नित्यम् आप्य तैजस कार्यस्व नित्यम् शुक्लभास्वरम् पाकजम् तेजसी तदेवाभास्वरमप्सु रसो रसनेन्द्रियग्राह्यो विशेषगुणः पृथ्वीजलवृत्तिः तत्र पृथिव्याम् मधुरादिषट्कप्रकारो मधुर अम्लवणकटकसारतिक्तभेदात् पाकजश्च अप्सु मधुरो पाकजो नित्यो अनित्यश्च नित्यः परमाणुभूतास्वप्सु कार्यसप्सु अनित्यः गन्धघ्राणग्राह्यो विशेषगुणः पृथ्वीमात्रवृत्तिः अनित्य एव तद्विध सुरभि असुरभिश्च जलादौ गन्धप्रतिभानम् तु संयुक्तसमवायम् द्रष्टव्यम् स्पर्शः त्वगिन्द्रियमात्रग्राह्यो विशेषगुणः पृथिव्याचतुष्टय वृत्तिः तच्च त्रिविध शीतोष्णानुष्णाशीतभेदात् शीतः पयसि उष्णः तेजसि उष्णाशीता पृथ्वी वायवो पृथिव्याम् पाकजः स एवापाकजो वायौ पृथिवीमात्रे ह्यनित्यः आप्य तैजस वायवीय परमाणुषु नित्यः आप्यादि कार्यस्व नित्यः एते च रूपादयश्चत्वारो महत्त्वै कार्यसंयतत्वे सत्यद्भूता इव प्रत्यक्षाः संख्या एकत्वादिव्यवहारहेतुः संख्या सामान्यगुणः एकत्वादिपरादपर्यन्ता तत्रैकत्वम् द्विविधम् नित्यानित्यभेदात् नित्यगतम् नित्यम् अनित्यगतम् अनित्यम् स्वाश्रयसमवायिकारणगतैकत्वजन्यम् च द्वित्वादिचानित्यमेव तत्तद्वित्वम् च द्वयोः पिण्डयोः इदमेकम् इदमेकम् इत्यापेक्षाबुद्ध्या जन्यते तत् द्वौ पिण्डौ समवायिकारणे पिण्डयोरेकत्वे असमवायिकारणे अपेक्षाबुद्धिर्निमित्तकारणम् अपेक्षाबुद्धिनाशादेव द्वित्वविनाशः एवम् द्वित्वादुत्पत्तिर्विज्ञया परिमाणम् मानव्यवहारसाधारणम् कारणम् तच्चतुर्विधम् अणुमहद्दीर्घस्त्वम् चेति तत्र कार्यगतम् परिमाणम् संख्यापरिमाण प्रचयोनिः तद्यथा दणुकपरिमाणम् ईश्वरापेक्षाबुद्धिजन्यपरमाणु द्वित्व जनित्यत्वात् संख्या योनि संख्या कारणम् इत्यर्थ। त्रणुक परिमाणम च स्वाश्रय समवाय कारणगतम बहुत संख्या योनि। चतुर्णुकादि परिमाणम तु स्वाश्रय समवाय कारण परिमाण जन्यम। स्थूलपिंड परिमाणम तु स्वाश्रय समवाय कारण अवयवानां शिथिल संयोग जन्यम। परमाणु परिमाणम परम महत् परिमाणम चाकाशादिगतम नित्यमेव पृथक्तम पृथक विवाह असाधारण कारणम तच्च द्विविधम एक पृथक्तम द्विपृथक्त्वादिकम च तत्राद्यम नित्यगतम नित्यम अनित्यगतम अनित्यम द्विपृथक्त्वादिकम चानित्यमेव संयोग संयुक्त व्यवहार हेतु गुण सद्व्यवस्थित अव्याप्य सत्रिविध अन्यतर कर्मज उभय कर्मज संयोगज चेति तत्रान्यतर कर्मजो यथा क्रियता श्येन स निष्क्रियस्य स्थानो संयोगः अस्य हि श्येन क्रिया असमवाय कारणम। उभय कर्मजो यथा सक्रियोर मल्यो संयोगः संयोगजो यथा कारणाकारण संयोगात् कार्याकार संयोगः यथा हस्ततरु संयोगेन कायतरु संयोगः विभागोपि विभक्त प्रत्यय हेतु संयोग पूर्वको द्वयाश्रय सतत्र विदोन्तर कर्मज उभय कर्मजो विभागश्चेति तत्र प्रथमो यथा श्येन क्रिया शैलश्येनयोर् विभाग द्वितीयो यथा मल्ययोर् विभाग तृतीयो यथा हस्ततर विभागात् कायतर विभाग परत्वा परत्वे परापर व्यवहार असाधारण कारणे परत्वा परत्वे ते तु द्विविधे दिक्कते कार्यकृते च तत्र दिक्कतेरुत्पत्ति कृते एकस्यां दिश्यवस्थितयोः पिण्डयोः इदमस्मात् सन्निकृष्टम् इति बुद्ध्यानुगृहीतेन दिक्पिण्ड संयोगेन परत्वं सन्निकृष्टे जन्यते। विप्रकृष्ट बुद्ध्या तु परत्वं विप्रकृष्टे जन्यते। सन्निकर्षस्तु पिण्डस्य द्रष्टुः शरीरापेक्षया संयुक्त संयोगाल्पीयस्त्वं तद्भूयस्त्वं विप्रकर्ष इति। कालकृतयोस्तु परत्वापरत्योरुत्पत्तिः कथ्यते। अनियत दिगवस्थितयोर युवस्था वीरपिंडयोः अयम अस्मादल्पतर कालसंबंध इत्यापेक्षया बुद्ध्या अनुगृहीतेन कालपिंड संयोगेन समवाय कारणेन यूनि परत्वम् अयम अस्मात् बहुतर कालेन संबद्ध इति धिया स्थविरे परत्वम् गुरुत्वम् आद्यपत्ना समवाय कारणम् अतीन्द्रियम् पृथ्वी जलवृत्तिः यथोक्तम् संयोग वेग प्रयत्नाभावे सति गुरुत्वात् पतनम् इति द्रव्यत्वम् आदिसन्नासमवाय कारणम् भूतेजो जलवृत्तिः भूतेजसो घृतादि सुवर्णयोरग्नि संयोगेन द्रवत्वम् नैमित्तिमम् जले नैसर्गिकम् द्रवत्वम् स्नेह चिक्कणता जलमात्रवृत्तिः कारण गुणपूर्वको गुरुत्वादिवत् यावत् द्रव्यभावी शब्दः स्वत्रग्राह्यो गुणः आकाशस्य विशेष गुणः ननु कथमस्य श्रोत्रेण ग्रहणम् यतोर भेर्यादि देशे शब्दो जायते श्रोत्रम तु पुरुष देशे स्थि सत्यम भेरी देशे जाता शब्दो विचितरंग न्यायन कदम्ब मुकुल न्यायन वा सन्निहितम शब्दांतरमारभते सच शब्द शब्दांतरमिति क्रमेण श्रोत्र देशे जातोऽन्यः शब्दः श्रोत्रेण गृह्यते नत्वाद्यो नापि मध्यमः एवं वंशे पाठ्यमाने दुलद्वय विभाग देशे जाता शब्द शब्दांतः रंभक्रमेण श्रोतदेशे अंतिम शब्दम जनयति सोऽन्त्यः शब्दसूत्रेण गृह्यते नाद्यो न मध्यमः भेरी शब्दो मया सुतः इति मतिस्तु भ्रान्तैव भेरी शब्दोत्पत्तौ भेर्याकाश संयोगो असमवाय कारणम् भेरी दंड संयोगो निमित्त कारणम् एवं वंश पाटना चटचटा शब्दोत्पत्तौ वंश दलाकाश विभागो असमवाय कारणम् दलद्वय विभागो निमित्त कारणम् इत्थम आद्य शब्द संयोगजो विभागजो वा अंत मध्यम शब्दास्तु शब्द समवाय कारण का अनुकूल वात निमित्त कारण का यथोक्तम संयोगात विभागाच्च शब्दाच्च शब्दानिष्पत्ति इति। वैशेषिक सूत्र 2231 आद्या दीनाम सर्व शब्दानाम आकाशम एकमेव समवाय कारणम कर्म बुद्धिवत् त्रिक्षणावस्थायित्वम् तत्राद्य मध्यम शब्दाः कार्य शब्दनाश्यः अन्तस्तूपान्तेन उपान्तस्त्वेन सुन्दोप सुन्दन्यायेन विनश्यतः इदम् त्वयुक्तम् उपान्त्येन तीक्ष्णावस्थायिनात्यन्तस्य द्वितीयक्षणमात्रानुगामिना द्वितीयक्षणे चाशतान्त्यनाशजननासंभवात् तस्मात् उपान्त्य नाशदेवान्त्यनाश इति विनाशित्वं च शब्दस्यानुमानात् तथा हि शब्दो नित्यः सामान्यवत्त्वे सत्यम् अस्मदादि बाह्येन्द्रियग्राह्यत्वात् घटवदिति शब्दस्य नित्यत्वं साध्यम् अनित्यत्वं च विनाशावच्छिन्नस्वरूपत्वं न तु विनाशावच्छिन्नसत्तायोगित्वं प्राग्भावे सत्ताहीने नित्यत्वाभावप्रसङ्गात् सामान्यवत्त्वे सत्यम् अस्मदादि बाह्येन्द्रियग्राह्यत्वं हेतुः इन्द्रियग्राह्यत्वादि इति उच्यमाने आत्मनि व्यभिचारः स्यात् अतोक्तं बाह्येति एवमपि तेनैव योगी बाह्येन्द्रियेण ग्राह्ये परमाणुवादौ व्यभिचारः स्यात् अतो योगिनिरासार्थम् उक्तम् अस्मदादिति किं पुनर्योगिसद्भावे प्रमाणम् उच्यते परमाणवः कस्यचित् प्रत्यक्षाप्रमेयत्वात् घटवत् इति तथापि सामान्यादिना व्यभिचारोत् उक्तं सामान्यत्वे सतीति सामान्यादित्यत्र निस्सामान्यत्वात् अर्थप्रकाशो बुद्धि नित्या नित्या च एषी बुद्धि नित्या अन्यत्री तु अनित्या स्थिति सुखम् तच्च सर्वात्मनानुकूल वेदनीयम् पीडा दुःखम् तच्च सर्वात्मना प्रतिकूल वेदनीयम् रागः इच्छा क्रोधो देशः उत्साह प्रयत्न बुद्ध्यादयः षड् मानस प्रत्यक्षाः धर्माधर्मौ सुख दुःखयोर् साधारण कारणे तौ च प्रत्यक्षावप्यागमगम्यौ हि देवदत्तस्य शरीरादिकम् देवदत्त विशेषगुणजन्यम् कार्यत्वेऽस्ति देवदत्तस्य भोगहेतुत्वात् देवदत्त प्रयत्नजन्य वस्तुवत् यश्च शरीरादिजनकः आत्मविशेषगुणः स एव धर्मो अधर्मश्च प्रयत्नादीनाम् शरीराद्यजनकत्वात् इति संस्कारव्यवहारासाधारणम् कारणम् संस्कारः स च त्रिविधो वेगो भावना उच्यतेस्थापकश्च तत्र वेगः पृथिव्या चतुष्टय मनोवृत्तिः स च क्रियाहेतुः भावनाख्यस्तु संस्कार आत्मवृत्तिरनुभवजन्यः स्मृतिहेतु स चोद्बुद्ध एव स्मृतिजनयति उद्बोधश्च सहकारिलाभः सहकारिणश्च संस्कारस्य सद्दर्शनाद्यः यथोक्तम् सादृष्ट्यादिष्टचिन्ताद्याः स्मृतिबीजस्य बोधका इति स्थापकस्तु स्वस्वद्रव्यविशेषवृत्तिः यथाभूतस्य स्वास्य सदनुरादेः पुनस्तदवस्थ्यापादकः एते च बुद्ध्यादयो धर्मान्ता भावना च आत्मविशेषगुणाः उक्ताः पृथिव्यास्तादृशस्पर्शाधिकरणत्वनिषेधे पृथिव्यादिति नित्यान्त्यभेदेन द्विधा विभक्तं पृथिव्याचतुष्टयं विधाय सम्प्रति अनित्यस्यावयविनि उत्पत्तिविनाशक्रमनिरूपयति तत्रेति भावकार्यस्य कारणत्रयविद्य नियमादत्र द्रणुकार्यस्य तादृशकारणान्याः पश्यति समदृष्टेरीश्वरस्य सृष्टिकर्तृत्वान् नाशकर्तृत्वं वा न दोषावहमित्यत् आह अधिष्ठादिनिमित्तकारणमिति तथा छात्रादिपदे नेश्वरतत्त्वयत्नादीनां परिग्रहः परमाणूनां द्रणुकादिक्रमेण महापृथिव्यादिभूतचतुष्टयकार्यारम्भकत्वात् प्रसिद्धम् नैयायिकानाम् आरम्भवादम् स्फुटीकुर्वन्नाह एवम् क्रमेणेति अत्र पृथिव्याम् तेजस्संयोगेन जायमानरूपादिचतुष्टयमधिकृत्य वादद्वयस्य प्राधान्यम् तत्र परमाणावेव पाकम् स्वीकुर्वन्तः कीलुपाकवादिनो वैशेषिकाः अवयविनावष्टभ्येष्वयवेषु पाकासम्भवात् तेजसो अतिवेगवशात् सद्यः पूर्वव्यूहनाशव्यूहान्तरोत्पत्ति सम्भवाच्च तेजः संयोगेन अवयविनष्टे सति तत्परमाणुषु पूर्वरूपादिनिवृत्त्यनन्तरम् रूपान्तरस्थोत्पादेः भोक्तुरदृष्टवशाद् दणुकादिक्रमेण अवयविन उत्पत्तिर्जायते एवञ्च परमाणु रूप कारणगुणक्रमेणावयविनि रूपादुत्पत्तिरिति मन्यते किन्तु नैयायिकास्तु स्वयं घट इति प्रत्यभिज्ञाबलाद् अवयविनः सा छिद्रात्वादनन्ता अवयविनामुत्पत्तिविनाश कल्पनापेक्षया अवयविनि पाककल्पने लाघवाच्चावयविन्यष्टेऽपि पाकेन पूर्वरूपादेर्निवृत्त्यनन्तरम् रक्त रूपादुत्पत्ति संभवेन पिठरे घटद्रणुकाद्यपि पाकं मन्यमानाः पिठर पाकवादिन इत्युच्यन्ते तथा च पीलुपाकवादिमतं प्रदर्श्य सम्प्रति पिठर पाकवादिमतमपि दर्शयति अन्यत्रेति परमाणु सद्भावे प्रमाणमाह यदिदम् इति तथा च तत्सरेणु सावयवारब्ध बहिरिन्द्रिय वेद्यद्रव्यत्वात् घटवत् इत्यनुमानेन द्रणुकं सांसाध्यतः ततः परमाणु साधयति तदपीति परमाणोर् प्रारब्धत्वे आपत्तिमाह तथा च सतीति त्रणुकस्य द्वाभ्याम् आरम्भे बहुत्व संख्या अनुपत्तिरित्य आह त्रणुकम् इति परिमाणस्य स्वसजातीय स्वोत्कृष्ट परिमाण जनकत्व नियमात् अणुजन्यत्व स्थाणुरत्वापत्या तसुरेणु प्रत्यक्षत्वापत्तिरितः तसुरेणुगत महत्व प्रयोजकम् जनुक रूप कारण महत्वस्य असंभवादाः तत्रेति आकाशं लक्ष्यति शब्द गुणकमिति शब्दस्य विशेष गुणत्व साधकम् अनुमानम् उपन्यस्यति तथा इति तस्य पृथिव्यादि गुणत्वं निवारयति न चेति सुसक्त प्रतिषेधे पृथिव्यादिषु निषेधे अन्यत्र गुणादौ प्रसंगात् परिशिष्यमाणे गगने यः सप्रत्ययः सः परिशेषस्तस्मादाह अत एव इति आकाशत्व धर्मस्य जातित्वाभावमाह एकत्वेति तथा चोक्तम् भक्तेर भेद तुल्यत्वं संकरो यथानवस्थितिः रूपहानि संबंधो जातिबाधक संग्रह भक्तेर भेदो नाम स्वाश्रय व्यक्तिनिष्ठ भेदाभावः स्वस्य जातित्वे बाधकः स्वाञ्चात्र आकाशत्वादि धर्मस्तद्धर्मास्याणां गगनादीनां ऐक्यात्तद्धर्माणां जातित्वाभाव बोध्य व्यक्तिस्तुल्यत्वन्नाम तुल्यव्यक्तिरुचित्वम् जातिभेद बाधक बोध्यम् घटत्वकलश धर्मयोरन्यूनातिरिक्त व्यक्तिवृत्तितया भिन्न जातित्वाभावो जात्यैक्यमित्यर्थः शङ्करो नाम साङ्कर्यम् तच्च परस्परात्यन्ताभाव समानाधिकरण धर्मयोरेकत्र समावेशः जातित्वबाधकस्तथा च भूतत्वं विहाय मनसि मूर्तत्वं मूर्तत्वं विहाय नमसि भूतत्वं मुक्त धर्मद्वयस्य प्रतिव्याज तुष्टये सत्त्वात् शंकरस्तेन तादृश भूतत्व मूर्तत्वयोर् जातित्वाभाव इति प्राचीनाः नव्यास्तु तस्य जातिबाधकत्वं न स्वीकुर्वन्ति अनवस्थितिरनवस्था सा च अप्रमाणिकानन्त पदार्थकल्पनाया विश्रान्ते अभावस्वरूपा जातिमत्वस्य बाधिका तथा च जातेर्जातिमत्वे अनवस्थायां पर्यवसानं स्यादतो घटत्वपटत्वादिषु न जातिमत्वम् इति भावः रूपहानिः रूपस्य विशेषाणां स्वरूपस्य स्वतो व्यावर्तकत्वस्य हानिर्जातिमत्वस्य बाधिका है यथा पदार्थानां जातिगुणक्रिया अवयवादिद्वारा भेदः सम्भवति परमाणुभेदकोऽन्तिमो व्यावर्तको विशेषः यथा अयं परमाणुः तत्परमाणुतो भिन्नः विशेषादित्याकारकानुमानेन परस्पर परमाणु वेदको विशेषः सिद्ध्यति तथा चोक्त विशेषे तत्तद्धर्मान्तरं स्वीकृत्य विशेषणत्वस्य जातित्वेन स्वीकारः स्यात् तदा विशेषस्य स्वाश्रय परमाणु वेदकत्वं विहन्येत स्वतो व्यावर्तकत्वं चेत्यतः विशेषत्वस्य जातित्वं न स्वीक्रियत इति भावः असंबंधो हि अनियोगिता प्रतियोगितान्यतर सम्बन्धेन समवायाभावो जातिमत्वस्य बाधकस्तथा हि समवायाभावो न कुत्रापि समवायेन वर्ते न वा तयोर्मध्ये समवायेन कस्यापि स्थितिस्तेनानुयोगिता प्रतियोगितान्यतर सम्बन्धेन समवायाभावात्तयोर्जातिमत्वाभावः अत एव समवायत्वाभाव त्वकर्मयो जातित्वाभाव इति फलितार्थः जातिबाधक संग्रह इत्यत्र जाति तद् भेद जाति मत्वादीनां परिग्रह गगन कार्यस्य शब्दस्य सर्वत्रोपलब्धित्वादाः विवुचेति तस्य नित्यत्वे विजमाः अतेवेति अत पृथिव्यादि भूत पंचकम् निरूप्य क्रमप्राप्तम् कालम् निरूप्यति कालोपीति विभुत्वे सति दिक् संवेद परत्वा परत्वा समवाय कारण संयोगाधिकरणत्वम् कालस्य लक्षणम् गगनादौ अतिव्याप्ति वारणाय विशेष दलोपादानम् पिंडादौ अतिव्याप्ति वारणाय विशेषण दलोपादानम् प्रत्यक्षा विषयभूतं तं प्रमाणयति दिग्विपरीतेति परत्वापरत्वे द्विधा कालिके दशिके च तत्र कालिकापरत्वन्नाम ज्येष्ठत्वं कालिकमपरत्वन्नाम कनिष्ठत्वं आभ्यां कालोनुमेय इति भावः दैशिकपरत्वं च दूरत्वं दैशिकपरत्वं च सन्निहितत्वं आभ्यां दिगनुमीय इत्यग्रे स्फूर्तिः भविष्यति द्रव्यस्य गुणत्वेन तस्य दवत्वं प्रतिपादयन् तद्गुणानाः संकेति कालत्वस्यैक व्यक्तिवृत्तितया जातित्वाभावं बाधयन्नाः एकेति दैशिकपरत्वापरत्वविरुद्धभाषमाने कालिकपरत्वापरत्वे निर्दिशति सन्निहित इति कारणवैलक्षण्यमन्तरा कार्यवैलक्षण्यासंभवात् तादृश कार्येण कारणमनुमापयति तदिदमिति कालिकपरत्वादिकार्यस्य भावकार्यत्वेन कारणत्रयविद्यनिमाद अत्र पिण्डस्य समवायिकारणत्वं रविक्रिया भूयस्त्वादिज्ञानेन जायमानत्वात् तस्य निमित्तकारणत्वं कालपिण्डसंयोगस्य समवायिकारणत्वामवगन्तव्यं तथा च कालिकापरत्वापरत्वे सा समवायिकारणके भवत्वे सति कार्यत्वात् घटवत् इत्यनुमाने न समवायिकारणकालपिण्डसंयोगाश्रयतया कालः सिद्ध्यति अथवा बहुतररविक्रियाविशिष्टशरीरज्ञानेन अयं परः स्वल्पतररविक्रियाविशिष्टशरीरज्ञानेन अयं परः इत्याकारके ज्ञाने भवतः परत्वापरत्वजनकं ज्ञानमिदं परम्परासम्बन्धघटकसापेक्षं साक्षात्सम्बन्धाभावे सति विशिष्टज्ञानत्वाल्लोहितः स्फटिक इति प्रत्ययवत् इत्यनुमाने तादृशपरम्परासम्बन्धघटकतया कालः सिद्ध्यति परम्परासम्बन्धश्च स्वसमवायियुक्तसंयोगः स्वपदेनात्र रविक्रिया तत्समवायि समन्वयः पृथिव्यादीनाम् अव्यापकत्वादिशश्च संयोगोपनायकत्वेन रविक्रियोपनायकत्वाच्छिद्धे न चात्मगगनयोस्तदुपनायकत्वम् इति वाच्यं तथा सति काश्मीरस्य कुङ्कुमरागेण कर्णाटकाकामिनी कुचकलशो परञ्जकत्वापत्तेः ननु काले अपि तद्योषताद्वस्थर्यमिति चेन्न कालस्य तादृशक्रियोपनायकत्वेन विशेषणतया घटकत्वेन तादृशपरत्वापरत्वबुद्धेर्निमित्तकारणत्वेनित्यर्थः सिद्धौ तदन्येषाम् अन्यथा सिद्धेः यथा एक एव पुरुषः पठनक्रियायोगात् पाठकः पचनक्रियायोगात् पाचकः जनक्रियायोगात् याजकः इति व्यवदिश्यते यथा कालस्यैकत्वेऽपि क्रियारूपोपाधिभेदेन सो हि भूतभविष्यत् वर्तमानसंज्ञां लभत इत्यतः पुरुष इवेति भूतत्वं नाम वर्तमानध्वंसप्रयोगित्वं भविष्यत्वं नाम वर्तमानप्रागभावप्रयोगित्वं शब्दप्रयोगादिकरणकालत्वं वर्तमानत्वं कालस्य कार्यमात्रं प्रति साधारणकारणतया सिद्धावपि कालिकापरत्वापरत्वबुद्धेर्साधारणनिमित्तकारणत्वं मिहावगन्तव्यम् इति भावः अतः क्रम प्राप्तां दिशां निरूपयति तथा च तल्लक्षणं विभुत्यति कालसमवेतपरत्वापरत्वसमवायिकारणसंयोगादिकरणत्वं गगनादौ अतिव्याप्तिवारणाय विशेषदलोपादानं पिण्डादौ अतिव्याप्तिवारणाय सत्यन्तं प्रत्यक्षविषयीभूतां तां प्रमाणयति कालविपरीतेति संयोगभूयस्वज्ञानेन दिक्कृतं परत्वं संयोग अल्पत्वज्ञानेन दिक्कृतम् अपरत्वं च जायते भावकार्यस्य कारणत्रयविद्यनियमात् परत्वाश्रय वस्तुना समवायिकारणत्वम् अवधिसापेक्ष संयोगभूयस्त्वादिज्ञानस्य निमित्तकारणत्वं दिग्पिण्ड संयोगस्य समवायिकारणत्वं मिहावगन्तव्यं तथा च दशिके परत्वापरत्वे सा समवायिकारणके भावते सति कार्यत्वात् घटवत् इत्यनुमानेन समवायिकारण दिग्पिण्ड संयोगाश्रयतया दिक्सिद्ध्यति अत्रायं विशेषः कालिकपरत्वापरत्वे सर्वेषां समाने किन्तु दैशिकपरत्वापरत्वे अवधिसापेक्ष बहुतरसंयोगादि विशिष्ट दिक्पिण्डज्ञानेन जायते अतएव काशीतः प्रयागम् अपेक्षया दूरे वर्तत इत्यत्र काशीम् अवधिकृत्य प्रयागे अपरत्वं गङ्गायां परत्वं चातः परत्वजनकम् अवधिसापेक्ष बहुतरसंयोगविशिष्टशरीरज्ञानमिदम् परंपरा संबंध घटक सापेक्षम साक्षात संबंधाभावे सति विशिष्ट ज्ञानत्वात् लोहितः स्फटिक इति प्रत्ययवत् इत्यनुमानेन तत्संबंध घटकतया दिक्पदार्थः सिद्ध्यति दिशो द्रव्यत्व सिद्धये तद्गुणानाः संख्यति अयमस्मात् पूर्वः अयमस्मात् पश्चिम इत्यादि विलक्षण प्रत्यय जायन्ते तद साधारण निमित्त कारण मंत्र संवादित्यत आह पूर्वादिति यन्मूर्त द्रव्यम यन्मूर्त द्रव्यापेक्षोदय गिरिसन्निहितं तन्मूर्त द्रव्यम तदपेक्षा पूर्वम यन्मूर्त द्रव्यम यन्मूर्त द्रव्यापेक्षोदय गिरिव्यवहितं तन्मूर्त द्रव्यम तन्मूर्त द्रव्यापेक्षा पश्चिमम एवञ्च यन्मूर्त द्रव्यापेक्षा यन्मेरुसन्निहितं तन्मूर्त द्रव्यम तदपेक्षा उत्तरम यन्मूर्त द्रव्यम यदपेक्षा मेरुव्यवहितं तद्दक्षिणम दिश एकत्वेपि एवंविध मूर्त द्रव्य रूपोपाद्यवच्छिन्नतया सा पूर्वादि संज्ञां लभते पृथिव्यादीनाम अव्यापकत्वात् कालात्म गगनानाम विभुत्वाप्यन्य देशस्थ जपा कुसुमे नान्य देशस्थ स्फटिक मगेरु रूपरंजकत्वापत्तेरित्यत आहतेषाम मन्यति प्राच्यादीनाम व्युत्पत्ति प्रकारकस्तु भास्कर पूर्वमस्याम प्रकर्षेणाञ्चतीति प्राची सत्यञ्चतीति प्रतीचि उदञ्चतीत्युदाचि अवाञ्चतीत्यवाचीति प्रमेय प्रतिपादक सूत्रोक्तात्म स्वरूपम पूर्वम विधाय वैशेषिक पदार्थांतर्गत नवविध द्रव्यांतः प्रविष्टात्म स्वरूपम पुनरपि प्रतिपादयितुम् आह आत्मत्वेति अनुसंवाय सुखम प्रति तादात्म्येन आत्मनः कारणत्वात् सुख दुख समवाय कारणतावच्छेदकतया ज्ञान समवाय कारणतावच्छेदकतया वात्मत्व जाति सिद्धतीति चेन्न अनात्मनिघटादौ सुखानुत्पादस्तु धर्मारूपादष्ट विधादेव भवतीत्युपगमात् नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भाविनिमयेन तादृश सामत्व जातेरीश्वरे अभावात् यदि समवायेन ज्ञानाधिकरणत्वमात्मत्वम् इति लक्षणादरस्तदा संभवति सर्वत्र लक्षण समन्वयः ननु नैयायिका विमत प्रमाण चतुष्टया प्रवृत्तेरीश्वर सद्भावे प्रमाणाभावम् तत्पादयताम् केषाञ्चित् दार्शनिकानाम् अभिप्रायः बाह्यमानस वेदेन द्विविधस्य प्रत्यक्षस्य मध्ये न तावद् रूपरहिते ईश्वरे बाह्यम् बहिरिन्द्रियजन्य प्रत्यक्षत्वावच्छिन्नम् प्रत्युद्भूतरूपस्य हेतुत्वात् नापि मानसम् परात्मव्यावृत्त विजातीयात्मनः संयोगस्य स्वात्ममानस प्रत्यक्षत्वावच्छिन्नम् प्रत्ययहेतुत्वात् तथा च न बाह्याभ्यन्तर प्रत्यक्ष प्रमाणपसर इति फलितार्थः नाप्यनुमानम् मानम् व्यविचाराग्रहपूर्वक सहचाराग्रहस्य व्याप्तिग्रह हेतुत्वेनेश्वरेण सह कस्यापि हेतो नियत साहचर्यावलोकनात् न चोपमानम् तस्य सादृश्य ज्ञानमन्तरा संभवेन ईश्वरे तदनुपत्तेः न खलु शब्दः प्रमाणम् श्रुतेः परमाप्तमहेश्वरोच्चैतत्वेनैव प्रमाण्याभ्युपगमादीश्वर एव सन्देहोदयात् तत्प्रमाणस्य वक्तुम् शक्यत्वात् इत्येन्न यद्यत् कार्यम् तत्तत् कर्तजन्यम् इति व्याप्तिबलेन चित्तङ्कुरादिकम् कर्तजन्यम् कार्यत्वात् घटत् इत्यनुमानेन कर्तजन्यत्व सिद्धावस्मादादीनाम् तत्कर्तृत्वा संवात्कर्तृत्वेनैव ईश्वरसिद्धिः कर्तृत्वम् च तत्तद् उपादान गोचर परोक्षज्ञानचिकित्साकृतिमत्त्वम् तथा च तज्ज्ञानेच्छादिमत्त्वेन तत्सिद्धिः एवम् च कार्यायोजन घृत्यादे पदात् प्रत्यतः श्रुतेः वाक्यात् संख्या विशेषाच्च साध्यो विश्वविदव्ययः इत्युदयनाचार्योक्त हेतुभिरपि तत्सिद्धिरन्यथा जगत् आस्मिकत्वेनोत्पत्तौ तु जगताम् यदि नो कर्ता कुलालेन विना घटः चित्रकारम् विना चित्रम् श्रुतः एव भवेत् तदा इत्यापद्येत् तथा चेश्वरसिद्धौ द्यावाभूमि जनयन् देव एकः इत्यागम वाक्या नामपि प्रमाण्यम् उपपद्यते पूर्वम् जीवात्मनो निरूपितत्वेनः स चोक्त एवेति तस्य द्रव्यत्वेन तद्गुणानः तस्येति आत्मनो नित्यत्वाविभूत्वादिप्रयोजनमुक्तप्रायमेव अथैवमष्टद्रव्यनिरूपणानन्तरम् क्रमप्राप्तम् ननो निरूपयति मनस्त्वेति तस्य मध्यम् परिमाणवत्त्वे अनित्यत्वापत्तेर्महत्परिमाणवत्त्वे चैककालावच्छेदेन चाक्षुषादिज्ञानोत्पादा पारोरित्यस्तत्परिमाणम् बोधयन्नाह अण्विति न च स्वरूपाम् सरसा सौरभान्विताम् स सस्कुलीं भक्षयतो जनस्यैक देव चाक्षुरासन घ्राणजादि ज्ञान संभवा तस्य विभुत्तम इति वाच्यम संचलस्य मनस आसुतर संचारितया युगपत छत्र पत्र भेदनस्यैव युगपद्याभि मानस्याप्यनुभव विरोधेन महत्वादन्यथा युगपद ज्ञानानुत्पत्ति तरी मनसो लिंगम इति न्याय सूत्रोक्तम अपि विरुध्येत आत्मनो विभुत्वेति शरीरावच्छिन्नात्मन स मन संयोग मंत्रा ज्ञान संभवादय क्रमो अभिमत आत्मा मनसा युज्यते मन इंद्रियण इंद्रियाण्यथ स्तुतो ज्ञानम इति जायत तत्र मनसा प्राधान्यम ज्ञापयन्न आत्मसंयोग इति आत्माभिमुखम शांतम मनोमोक्षाय कल्पते अतएव इति योगवशिष्टे चोक्तम मन एव मनुष्याणां कारणं बंधमोक्षयोः बंधाय विषयासक्तं मुक्तये निर्वासनं पुनः एवञ्च आत्मा वाले द्रष्टव्य श्रोतव्य मन्तव्य निर्ध्यातव्य इति श्रुत्यापि आत्मदर्शनस्य प्रतिपादितत्वान् मनस इन्द्रियत्वमन्तरा आत्मतद्गुणानां प्रत्यक्षत्वासंभवात् तस्येन्द्रियत्वमुपादयति अन्तरिन्द्रियमिति ज्ञानसामान्यं प्रति मनसः साधारणकारणत्वेन सिद्धावपि सुखादीनां प्रत्यसाधारणकारणत्वेन तत्सिद्धिमाह सुखादीति स्वकृत कर्मजन्यादिष्ट जात सुख दुखादीनां स्वमनसैवोपभोक्तुं शक्यत्वान् निरवयदब्धस्य नित्यत्वाच्चाह नित्यम् इति ज्ञानसामान्यं प्रत्यात्मनसंयोगस्य कारणत्वादाह अत एवेति तथा च ज्ञानसामान्यं प्रति मनस्त्वेन सुखादिकं प्रतीन्द्रियत्वेन मनसः कारणत्वम् इति भावः अप्रत्यक्षतया इदम् अनुमानमाह तथा इति द्रव्यनिरूपणानन्तरम् अवसरप्राप्तं गुणलक्षणमाह सामान्यति तथा च सामान्यवत्ते सति समवायाधिकरणभिन्नत्वे सति कर्मभिन्नत्वम् इत्यर्थलाभः प्रथम सत्यंता दलानुपादाने सामान्यादवति व्याप्तिः द्रव्ये अतिव्याप्तिवारणाय सति द्वितीय दलोपादानम् तस्य च समवायकारण भिन्नार्थकत्वमन्यथा आत्मविशेषगुणानां कुत्रापि समवायकारणत्वात् संभवेनाव्याप्तेः समवायकारणत्वस्य गुणकर्म मात्रतया प्रथम दलानुपादानेऽपि सामान्यादौ तदभावेनाति व्याप्त्यभावात् तद्वयर्थ आपत्तेश्च कर्मण्यतिव्याप्तिवारणाय विशेषदलोपादानं तथा च द्रव्यकर्मभिन्नत्वस्य सामान्यवत्त्वं गुणसामान्यलक्षणं सति सत्यन्तदलेन द्रव्यकर्मणोः विशेष्येन सामान्यादेश्य व्यावृत्तिः द्रव्यत्वव्यापकतावच्छेदक सत्ता भिन्न जातिमत्त्वं वा गुणत्वं बोध्यं तदाश्रय महासा चेति अधिक संख्या व्यवच्छेदार्थं परिगणयति रूपेति गुणादीनां निर्गुणत्वात् चतुर्विंशति संख्या चात्रापेक्षा बुद्धिविषयत्वा रूपा न तु समवायेनान्यथा द्रव्यलक्षणस्याति व्याप्तेः संपरिगणित रूपलक्षणं महातत्रेति एवञ्च चक्षुर्मात्रगयत्वेषति विशेषगुणत्वं रूपस्य लक्षणं रसादि विशेषगुणादौ अतिव्याप्तिवारणाय स्थित सांसिद्धिक द्रवत्वे अतिव्याप्तिवारणाय मात्रपदोपादानम् तथा च चक्षुर्भिन्नेन्द्रियाग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम् इति तदर्थः येनेन्द्रियेण या व्यक्तिर्गृह्यते तद्गता जातिस्तदभावश्च तेनैव इन्द्रियेण गृह्यत इति नियमाद्रूपत्वादौ अतिव्याप्तिवारणाय विशेषदलोपादानम् तत्रापि प्रभाकरसंयोगे अतिव्याप्तिवारणाय विशेषपदोपादानम् शास्त्रयमाह पृथिव्यादिति शुक्लकृष्णरक्तपीतहरितकपिश्चित्रभेदात् सप्तविध रूपभेदमाह तच्चेति ननु नानारूपवतामवयवानां रूपेणैव चित्ररूपोपपत्तौ सप्तम चित्ररूपाङ्गीकारः कथमिति चेन्न द्रव्यचाक्षुषप्रत्यक्षत्वावच्छिन्नं प्रति समवायनरूपस्य हेतुतया चित्ररूपस्वीकारमन्त्रनिरूपस्याविनो अप्रत्यक्षत्वापत्तेः रतश्चित्ररूपं पृथिव्यां स्वीक्रियते तेन सत्त्वविदं रूपम् इति ध्येयम् नित्यानित्योभयविध पृथ्वीरूपस्य पाकजत्वेन तस्यानित्यत्वमाह तच्चेति जलीय तैजसपरमाणुगतरूपस्य नित्यत्वमाह आप्येति। जलीय तेजस दृणकाद तस्य नित्यत्वम् आह आप्येति परप्रकाशकतावच्छेदक रूपत्वव्याप जाति विशेषो भास्वरत्वम् तद्वद्भास्वरत्वम् परप्रकाशमित्यर्थः रसलक्षणम् आहारस्येति तथा च रसेन्द्रिय ग्राह्यत्वेऽस्ति विशेषगुणत्वम् रसस्य लक्षणम् रसस्य षड्विधत्वम् दर्शयति तत्रेत्यादिना नन्विधा षड्विधरूपातिरिक्तमेकम् चित्तरूपम् अवयवनिङ्गी क्रियते तथैव मधुरादि षड्विधरसातिरिक्तचित्ररसः कथनेति चेन्न अवयविनो निरूपत्वे तत्प्रत्यक्षत्वासम्भवात् एकम् चित्रम् रूपम् इत्याकारकप्रतीतेश्चानुभवसिद्धत्वाद् अङ्गीक्रियते किन्तु अत्रापत्तिविहादेव चित्ररसनाङ्गीकार इति ध्येयम् वस्तुतो विभिन्न रसविशिष्टरसरेणु विजीयमानस्य तृणुकस्य रसस्य भवन्मते अवयवरसत्वेन प्रत्यक्षायोग्यत्वाद् अवयविनो रसस्यासद्भावाच्च तथोक्तरसप्रत्यक्षत्वानुपत्तिरूपापत्तिसद्भावेन चित्ररसोऽपि स्वीकर्तव्य इत्यापरे पृथ्वीजलयोर्मध्य नित्यानित्योभय विद पृथ्वीमात्रवृत्तेर्मधुरादि षड्विधरसस्य पाकजत्वेनानित्यत्वम् जलीयपरमाणु वृत्तेस्तस्य नित्यत्वम् गुणकादौ स्थितस्य चानित्यत्वम् जले मधुरस्यैव रसस्य सत्त्वात्तस्य चापाकजत्वादाह अप्सिति तथा च जलीयपरमाणुनिष्ठस्य तस्य नित्यत्वम् जलीयदणुकादिनिष्ठस्य तस्य नित्यत्वम् इति बोधयन्नः नित्यरिति गन्धम् निरूपयति गन्ध इति घ्राणेन्द्रियजन्यप्रत्यक्षविषयत्वे सति विशेषगुणत्वम् गन्धस्य लक्षणम् तस्य पृथिव्या असाधारणधर्मत्वेनः पृथिवीति नित्यानित्योभयविध पृथिव्या गन्धस्य पाकजत्वेन नित्याभावादः अनित्य एवेति तद्भेदमाह स इति ननुगन्धस्य पृथ्वीमातृत्वे सुरभिः समीर्णः इति प्रतीतिः कथम् उत्पद्यते इत्यत आह जलादौ इति स्वास्थ्यसंयुक्ता समवायेन इत्यर्थः स्वपदेन चात्र पुष्पचन्नादि गतगन्धो ग्राह्यस्तदाश्रयः पुष्पादिस्तत्संयुक्तो जलाद्यवयस्तत्समवायो जलादौ तेनेत्यर्थः स्पर्शं लक्ष्यति स्पर्श इति स्वगिन्दीमात्रग्राह्यत्वे सति विशेषगुणोत्तम स्पर्शस्य लक्षणम् जलीयसंसिद्धिक द्रवत्वे अतिव्याप्तिवारणाय मात्रपदोपादानम् तदाश्रयमाह पृथिव्यादीति तद्भेदमाह सचेति उद्भूतानुद्भूतभेदेन द्वैविध्यमापन्नेषु रूपरसगन्धस्पर्शेषु महत्परिमाण समानाधिकरणानाम् उद्भूतानामेव तेषाम् तत्तद् इन्द्रियजन्यप्रत्यक्ष विषयत्वम् महत्वा समानाधिकरणानाम् उद्भूतानाञ्च न प्रत्यक्षविषयत्वम् किन्तु अनुमानवेद्यत्वम् इत्यभिप्रायेण एते चेति अयमेकः इमौ द्वौ इत्याकारकप्रतीति साधारणनिमित्तकारणत्वम् सङ्ख्यायाः लक्षणम् परमाणादीनामपि व्यवहारहेतुत्वाद् अतिव्याप्तिस्तद्वारणाय एकत्वादिपदोपादानम् सङ्ख्यायाः सकलद्रव्य व्यक्तित्व सामान्यपदोपादानम् तेन तस्याम् विशेषगुणत्वव्यावृत्तिः कालादिसाधारणकारणे अतिव्याप्तिवारणाय लक्षणे असाधारण पदोपादानम् इति व्यवहारे दशगुणितक्रमेण प्रचलितानां सङ्ख्यासङ्ख्येयानां निर्देशो यथा एकं दशं शतं चैव सहस्रमयुतं तथा लक्षं च नियुतं चैव कोटिर्बुधमेव च बिन्दं खर्वो निखर्वश्च शङ्खं पद्मश्च सागर अन्तं मध्यं पराधं च दशविद्या यथाक्रमम् अनित्यमेकत्वं कारणगतैकत्वगुणपूर्वकम् इति ज्ञापयन्नः स्वाश्रयति स्वपदेन चात्रा नित्यमेकत्वं ग्राह्यम् तदाश्रयस्य यत्समवायकारणं तद्गतैकत्वजन्यम् इत्यर्थः नानेकत्वावगाहिनी बुद्धिरपेक्षा बुद्धिस्तत्त्वे द्वित्वा सत्त्वं तन्नाशे द्वित्वनाश संवात् तदुत्पत्तिप्रक्रियामाह तत्रेति तथा च भावकार्यस्य कारणत्रयविद्यनियमादाः तत्रेति अपेक्षा बुद्धिं विना द्वित्वत्पत्तौ द्रव्येण सहेन्द्रियसन्निकर्षे द्रव्यप्रत्यक्ष प्रथमक्षणे द्वित्वप्रत्यक्षत्वापत्तेः अपेक्षाबुद्धिजन्यस्य द्वित्वादिर्नेकाश्रयेषु पर्याप्तत्वमन्यथोभयत्वम् उभयत्रैव पर्याप्तं न त्वेकेत्रा इत्याकारक प्रतीत्यानुपत्तिरिति द्वित्वादिर्गुणानन्तरापेक्षया विशेषः जन्य द्रव्यनाशात तदैक त्वनाशो द्रव्यनाशापेक्षा बुद्धिनाशाच्च द्वित्वादिनाशमः अपेक्षेति। पूर्वोक्ता व्याख्यान संग्राहक मभियुक्तानां पद इदम् आदाविनिन्द्रिय सन्निकर्ष घटनादेकत्व सामान्यधि रेकत्व भयगोचरामतिरतो दित्तम ततो जायते तस्मात्तमतिस्ततो विपरतो दित्त प्रमाणांतरम ते द्रव्ये इति धीर्यं निगदितं दित्वोदय प्रक्रिया इति परिमाणं लक्ष्यति मानेति। स्थूलत्व दीर्घत्वादि परिमाण असाधारण कारणत्वं परिमाणस्य लक्षणम् तस्य नव द्रव्यवृत्तित्या साधारण गुणत्वं कालादीनां कार्यमात्रं प्रति साधारण कारणत्वेन तत्रा व्याप्तिवारणाय लक्षणे असाधारण पदोपन्यासः तद्भेदमाह तच्चतुर्विधम् इति। अत्र भावप्रधानतया निर्देशस्तेनानुक्तं महत्त्वं सत्त्वं दीर्घत्वम् इत्यर्थः। परिमाणस्य नित्यानित्यभेदेन द्वैविध्यं तत्रानित्यस्य कार्यगत परिमाणस्य कारणाकांक्षाया महा संख्येत्यादिना परिमाणस्य सुजातीय सोत्कृष्ट परिमाणजनकत्वम् इति नियमेन परमाणु परिमाणस्य दणुक परिमाणरम्भकत्वे दणुक परिमाणस्यानुतरत्वा प्रत्येत आह परमाणुगत द्वित्व संख्यायाः दणुकगत संख्या प्रत्ययसमवायकारणत्वं दृष्टान्त द्वारा प्रतिपादयति। तद्यथेति दणुक कत्वात् संख्या योनि संख्या कारणकम् इत्यर्थः। दणुक परिमाणस्य तसरेणु परिमाण आरम्भकत्वे तस्याणु मत्वेन तसरेणु प्रत्यक्षत्वापत्ति द्रव्याप्रत्यक्षे महत्वस्य हेतुत्वाद् अत आह त्रणुकेति। तथा च स्वं त्रणुक परिमाणं तदाश्रय त्रणुकस्तस्य समवायकारणानि त्रणुकावयवादिष्टणुकास्तद्गतं बहुत्वं योनिकारणमित्यर्थः। अवयवगतपरिमाणस्य अवयविगतपरिमाणं प्रति कारणत्वं यत्र तद्दृष्टान्तेति चतुर्णुकादिति प्रत्ययस्यावयवशिथिलसंयोगस्य परिमाणं प्रति कारणत्वम् आहातुलेति। महत्परिमाणतारतम्यस्य गगनादिपरिमाणे अणुपरिमाणतारतम्यस्य च परमाणु विश्रान्तिर्विज्ञेयान्यथा मेरुसर्पयोः साम्यप्रसङ्गस्तथा च नित्यगतस्य परमाणुपरिमाणस्य गगनादिपरिमाणस्य च नित्यत्वं गणकादिकार्यं द्रव्यगतानां मध्यमपरिमाणानां च नित्यत्वम् इति विज्ञापयन्नाः परमाणुविति क्रमप्राप्तं पृथक्त्वं निरूपयति पृथक्त्वम् इति। इदमस्मात् पृथक् इत्याकारकव्यवहारासाधारणं कारणत्वं पृथक्त्वस्य लक्षणं न च तस्यान्योन्याभावस्वरूपत्वात् गुणत्वाभाव इति वाच्यं। घटो न पट इत्याकारकप्रतीत्यपेक्षया घटात् पटः पृथक् इत्याकारकप्रतीतेर्विलक्षणत्वात् अन्योन्याभावविषयकप्रतीतिजनक प्रथमान्तपदप्रयोगपृथक्त्वविषयक बोधजनक पंचम्यंत पद प्रयोगयोर भेद जनकत्वाच्च अपि चान्योन्याभाव पृथकत्वयोर भेदे घटीयं रूपं न घटः इत्यत्र घटीयं रूपं घटोत् पृथक इत्याकारक प्रयोगोपपत्तेः। एवं च सूत्राम् तयोर्भेदः सिद्ध्यति संयोगं लक्ष्यति संयुक्तेति। इमौ द्वौ संयुक्तौ इत्याकारक व्यवहारसाधारणं कारणं संयोगास्तस्योभयनिष्ठत्वात्स्वाभावद्वृत्तित्वाच्चाह स इति तद्भेदमाह। अन्यतरेति तत्र संयोगत्रय मध्ये अन्यतरक्रिया जायमाना संयोगान्यतरकर्मजस्तं दृष्टान्तेति यथेति। भावकार्यस्य कारणत्रयविद्यनियमात् संयोगस्य पिण्डद्वयस्य समवायकारणत्वं क्रियायाश्च समवायकारणत्वम् आह अस्येति। उभयोः क्रिया जायमानः संयोग उभयकर्मजस्तं दृष्टान्तेति उभयेति। कारणाकारणसंयोगात् जायमानः कार्याकारसंयोगः संयोगज संयोगस्तम् उदाहरति यथा हस्तीति विभागं लक्ष्यति विभाग विभागम लक्ष्यति विभक्तेति इदम अस्माद् विभक्तम इत्याकारक प्रतीत्य साधारणम कारणत्वम संयोगनाशकत्वेति गुणत्वम वा विभागस्य लक्षणम। यदि संयोगनाशा एव विभागस्तरी क्रियोत्पत्ति द्वितीय क्षणेपि संयोगनाश प्रतीत्यापत्ति स्याद् अतो न संयोगनाशो विभाग इत्यवधेयम् तद्भेदम् आह सचेति। तृतीय विभागज विभागो द्विविधः कारण मात्र विभागज कारणाकरण विभागजश्चेति। तत्रादौ यथा कपाल कर्मणा घट कारणीभूत कपालद्वय विभागे स्थिति घटारंभक कपालद्वय संयोगो नश्यति। द्रव्यारंभक संयोगस्य द्रव्य समवाय कारणतः तन्नाशे घटात्मक द्रव्यस्यापि नाशस्तथा कपालद्वय विभागजन्य कपाल काश विभागो जायते। न च घटनाशात् पूर्व कपाल विभाग एव कपालाकाश विभागम जनयत्विति वाच्यम विद्यमाने अवयव न्यवस विद्यमाने अवयवी न्यवयस्य देशांतर विभागा संभवात् न च कपाल कर्मय वेकदा कपालद्वय विभागम आकाशक कपाल विभागंच जनयत्विति वाच्यम एकया क्रियैक क्षणा वच्छेदेन द्रव्यारंभक द्रव्यानारंभक संयोगद्वय विरोधी विभागा द्वय जनने विकसत्कम विकसत कमल कुडमल भंग प्रसंगात एवं च विभाग विभागस्य विकसत कमल कुडमल भंग प्रसंगात एवं च विभागज विभागस्य कर्मज विभागयोर मध्ये अंतर भूतत्वात् चातिरिक्तत्वम् इत्यवधेयम्। द्वितीय विभागज विभाग मुद्रा हरति तृतीयति